गणानां त्वा गणपतिगुं हवामहे कविं कवेना उपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पदान् शृण्वन्नो दिभिः सेदसादनम् प्रणो देवे सरस्वते वाजिनेवते धेनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यवऊतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते तनुः शिवा शरव्या यातवतया नो रुद्रमृडया या ते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाजन्दमया गिरिशन्दाभिचाकशे यामिषुम् गिरिशन्दहस्ते विवर्षस्तवे शिवाम् गिरित्रताम् कुरु मायिकुम् श्रीपुरुषम् जगत् शिवेन वचसा त्वा गिरिसा चावदामसे यदा नः सर्वमिज्जगद यक्ष्मगुम् सुमनासत् अद्य वोचदति वक्ता प्रथमो दैव्योऽभिषक् हरेकुश्च सर्वाञ्जम्पयन् सर्वास्ययातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये ते मागुम् रुद्रा अभितो दिक्षु श्रिता सहस्रशो वैशागुम् एडयेमहे असौ यो वसर्पति नीलग्रेवो विलोहितः उतैनम् गोपा अदृशन्न दृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य तत्त्वानोऽहम् देव्यो करन्नमः प्रमुञ्चदन्वनस्त्वमुभयोरार्नियोर्जा यास्य देहस्तरिषव पराता भगवो मम अवतत्यदनुस्त्वगुम् सहस्राक्षरेषु ते निषेर्यशल्यानामुखा शिवो न सुमना भव विज्यम् तनुक्रभर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आपुरस्य निशङ्गतिः या ते हेतिर्मे दुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नादताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो यैषुरिः सवारे अस्मन्निधेयितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः स तस्मिन् जरायत्विषेमदे पदीनाम् पदये नमो नमो बभ्लुषाय विद्याविनेन्द्रानाम् पदये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पदये नमो नमो भवस्य हेत्यै जगताम् पदये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पदये नमो नमः सूताय हन्त्याय वनानाम् पदये नमो नमो रोहिताय स्तवरये वृक्षाणाम् पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पदये नमो नमो भुवन्तये वारिवस्तुतायौषधीनाम् पदये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पदये नमो नम कृष्णवेदाय धावते सत्त्वनाम् पदये नमः नमः सहमानाय निव्याधिनाव्याधिनीनाम् पदये नमो नमः ककुपाय निषङ्गिणे स्तेनानाम् पदये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पदये नमो नमो वञ्चते परिवञ्चते सायूनाम् पदये नमो नमो निचेरवे परिचरायारण्यानाम् पदये नमो नमः श्रीकाविभ्यो जिगागुम् नद्यो उष्णताम् पदये नमो नमोऽसि मद्भ्यो नक्तम् चरद्भ्यः प्रकृन्दानाम् पदये नमो नम उष्णीषिणे गिरिधराय कुरुञ्जानाम् पदये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आदन्वादन्वादन्वानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्यो जाग्रद्भ्यश्च वो नमो नम तिष्ठद्यो दावद्भ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यः श्रीगुम्हरेभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कैमारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो दन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नम श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रीकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शततन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीदुष्टमाय तेषु मते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे च जिराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूथिने च नमो भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो धृष्णवे च प्रमृषाय च नमो धूताय च प्रहिताय च नमो निषङ्गिणे चेषु धीमते च नमः श्रीष्णे च वेदायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशम्दाय च नमः कोप्याय च वट्याय च नमो वश्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च दप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः
उग्राय च भीमाय च नमो
अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवधराय च नमस्तीर्थ्याय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च फेन्याय च नमः शिखत्याय च प्रभात्याय च नम इरण्याय च प्रपत्याय च नमः किगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చ విఘ్నతే చ నమాఖిదతే చ ప్రక్షిదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ నిర్హతేభ్యో నమామీవత్కేభ్య ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహితాం పురుషాణమేషాం పశూనాం మా భేర్మా రోమో ఏషాం కించనామవద్ యాతే రుద్ర శివ తను శివ విశ్వాహ భేషజే శివ రుద్రస్య భేషజే తయానో మృడ జీవసే ఇమాగుం రుద్రాయ తవసే కభర్దినే క్షయద్వీరాయ ప్రవరామహే మతిం యతానశ్వమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోదనో మయస్కృతి క్షయద్వీరాయ నమసావిదే మతే యచ్చం జయోశ్చమనురాయజే పితా తదశ్యామతవరుద్ర ప్రణీతౌ మానో మహాంతముత మానో అర్భకం మాన ఉక్షంతముత మాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామాన తనువో రుద్రరీరిష మానస్తోకేతనయే మాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిష వీరాన్మానో రుద్రపామితో వదేర్హవిష్మందో నమసా విధేమదే ఆరాత్తే గోగ్నహుత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తు రక్షాచనో అధిజ దేవ బ్రూహదాచన శర్మ యచ్చ ద్విపర్హాః స్తుహి శ్రుతం గర్త సదం యువానం మృగన్న భీమముపహత్నుముగ్రం మృడా చరిత్రే రుద్రస్తవానో అన్యందే అస్మన్నివ పందుసేనాః పరిణో రుద్రస్య హేతుర్వృణక్తు పరిత్వేషస్య దుర్మతిరకాయో అవస్థిరా భగవద్భ్యస్తనుష్వమీడు శోకాయతనయాయ మృడయా మీఢుష్టమ శివ తమ శివో న సుమనాభవ పరమే వృక్షాయుధన్వితాయ కృత్తిం వద న ఆచర పినాకం బిభ్రదాదహి వికిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయో నమస్మన్నివ బంధుతాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచేనాముఖాకృతే సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యాం తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే అస్మిన్ మహత్యర్ణవేంతరిక్షే భవాదే నీలగ్రీవా శ్రీకంఠా శర్వాదః క్షమాచరాః నీలగ్రీవా శ్రీకంఠాదివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాశ కభర్దినః యే అన్యేషు వివిద్యంతి పాత్రేషు పిబతో జనాన్ యే పతాం పరిరక్షయ ఐలభృతాయ వ్యుధః యే తీర్థాని ప్రజరంతి శ్రీకావంతో నిశంగిణః య ఏతావంతస్య భూయాగుంసస్య దిశు రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే
నమో రుద్రేభ్యో యే పృథివ్యాం యేంద్రక్షే యే దివేషామన్నం వాతో వరుషమిషభస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రతిచీర్దశోదిచీర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం విష్మో యస్య నో ద్వేష్టితం భోజం వే దదామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షేయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సు యోషధీషు యో రుద్రో విశ్వభువనా వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాస మృత్యోర్మర్త్యాయ అంధవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాభ్యాయస్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టుర్యస్య సుసుధన్ వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో భిర్దేవ మధురం దువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వవేషజో యగుం శివాభిమర్షణః ఓం శాంతి 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 ఓం సంచమే మయస్య మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సోమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసూశ్చ మే శేరం చ మే లయశ్చ మృతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మేన మిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే ఓం శాంతి 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 శిక్షాం వ్యాఖ్యాస్యామః వర్ణస్వరః మాత్రాబలం సామసందానః ఇత్యుక్తక్షేక్షాధ్యాయః సహ నౌ యశః సహ నౌ బ్రహ్మవర్చసం అథాతః సగుంహితాయ ఉపనిషదం వ్యాఖ్యాస్యామః పంచస్వధికరణేషు అధిలోకమధిజ్యోతిషమధివిద్యమధిప్రజమధ్యాత్మం తామహాసగుంహితా ఇత్యాచక్షతే అథాధిలోకం పృథివీ పూర్వరూపం జౌరుత్తరరూపం ఆకాశః సంధిః వాయుః సంధానం ఇత్యధిలోకం అథాధిజ్యోతిషం అగ్నిః పూర్వరూపం ఆదిత్య ఉత్తరరూపం ఆపః సంధిః వైద్యుతః సంధానం ఇత్యధిజ్యోతిషం అథాధివిద్యం ఆచార్యః పూర్వరూపం అంతేవాస్యుత్తరరూపం విద్యా సంధిః ప్రవచనగుం సంధానం
इत्यधिविद्यम् अथाधिप्रजम् माता पूर्वरूपम् पितोत्तररूपम् प्रजा सन्धिः प्रजननकुम् सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहनुः पूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः
इत्यध्यात्मम् इतीवा महासगुम्भिताः यदेव वेदा महासगुम्भिता व्याख्याता वेदा सन्धीयते
प्रजया पशुभिः ब्रह्मवर्चसेदान्नाद्येन सुवर्गेण लोकेन यश्छन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम्भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणा चिरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमापः लोमशाम् पशुभिः सह स्वाहा आवायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सा निःस्वाहा श्रेयान्वश्च सोऽसा निःस्वाहा तम् त्वाभगप्रविशा निःस्वाहा समाभगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगोऽहम् त्वयि मृजे स्वाहा यथा पप्रवतायन्ति यथा मासा अहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्य स्वा भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः तासामुहस्मैताम् चतुर्थीम् माहाचमस्य प्रवेदयते मह इति तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाम सर्वे लोकामहीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वारुचः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्येन वाव सर्वे प्राणामहीयन्ते तावा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रोऽव्याहृतयः तायो वेदा स्ववेद ब्रह्मा सर्वे एस्मै देवा बलिवा वहन्ति स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एषस्तन इवावलम्बते सेन्द्रयोनिः यत्रासौ केशान्तौ विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपा स्वा पृथिव्यन्तरिक्षम् द्योर्दिशोपान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् असाध्यात्मम् प्राणोऽव्यानोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्त्वक चर्ममोगुंसग्गस्नावास्तिमज्जा एतदधिधाय ऋषिरवोचत पाङ्क्तम् वा इदगुम् सर्वम् पाङ्क्ते नैव पाङ्क्तग्स्पृणोतीति ओमिति ब्रह्मा ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिः स्म वा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुंशोमिति शस्त्राणि शगुंसन्ति ओमित्यघर्युप्रतिघरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रभक्षन्नाह ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपो नित्यपौरुषष्टिः स्वाध्याय प्रवचने एवेति नाकोमौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिम् पृष्टम् गिरेरिव ऊर्ध्वपवित्रो वाजिनेव स्वमृतमस्मि द्रविणगुंसवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्गोर्वेदानुवचनम् वेदमनोच्चाचार्यो अन्तेवासिनमनुषास्ते सत्यम् वदा धर्मम् चरा स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्सि सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्यैण प्रमदितव्यम् स्वाध्याय प्रवचनाभ्यान्न प्रमदितव्यम् देवपितृकार्याभ्यान्न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकगुं सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये केचास्मच्छ्रेयागुं सो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ह्रिया देयम् भिया देयम् संविदा देयम् अत यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणा संवर्षिणः युक्ता युक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरण्य तथा तत्र वर्तेथाः अथाभ्याख्यातेषु ये तत्र ब्राह्मणा संवर्षिणः युक्ता युक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरण्य तथा तेषु वर्तेताः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यवा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मापावेत् तद्वक्तारमावेत् आवेन्माम् आवेद्वक्तारम् ॐ शान्ति 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 ब्रह्मात्मन्वद सृजत तदकामयत समात्मना पद्येयेते आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगुं होत प्रत्यशृणोत् स दशहूतो भवत् दशहूतो हवैनामैषः तम् वारेतम् दशहूतगुंसन्तम् दशहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम् होत प्रत्यशृणोत् स सप्तहूतो भवत् सप्तहूतो हवैनामैषः तम् वा एतम् सप्तहूतगुंसन्तम् सप्तहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठगुम् होत प्रत्यशृणोत् षड्ढूतो भवत् षड्ढूतो हवैनामैषः तम् वा एतम् षड्ढूतगुंसन्तम् षड्ढूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमगुम् होतः प्रत्यशृणोत् स पञ्चहूतो भवत् पञ्चहूतो हवैनामैषः तम् वा एतम् पञ्चहूतगुंसन्तम् पञ्चहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्धगुम् होतः प्रत्यशृणोत् स चतुर्भूतो भवत् चतुर्भूतो हवैनामैषः तम् वा एतम् चतुर्भूतगुंसन्तम् चतुर्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः तमब्रवीत् तम् वै मेनेदिष्टगुम् होतः प्रत्यश्रौषे तयेनाख्यातार इति तस्मान्नुहैनागुम् चतुर्होतार इत्याचक्षते तस्माश्रूषपुत्राणागुम् हृद्यतमः नेदिष्टो हृद्यतमः नेदिष्टो ब्रह्मणो भवति य एवम् वेदा आत्मने नमः ॐ शान्ति शान्ति शान्तिः पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रप्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुड प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदग्स्त्राय धीमहि तन्नो नारसिगुम्ह प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निप्रचोदयात् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ
शांति 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 ही।